लाञ्जनम् समाभासम् रविपुत्रम् यमाग्रजम् छायामार्तण्ड सम्भूतम् तं नमामि शरैश्चरम्।